गणेशाय नमः। ॐ वागर्ताविव संप्रक्तौ वागर्थप्रतिपत्तये जगदः पितरं वन्दे पार्वती परमेश्वरौ। ॐ येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
सुन्दरं भगिनी, धन्यवादः।
धन्यवादः।
अस्तु, अद्य कानिचन करपत्राणि अहं प्रेषितवती, पश्यति वा?
आं भगिनि, अहम् अपि
पार्श्वे अस्ति, मम
पार्श्वे अस्ति।
उत्तमं, तदेव वयं कुर्मः। अस्तु, पुटसङ्ख्या किं भगिनि, पुटसङ्ख्या किं तत्र? चाप्टर् नम्बर् किं भगिनि?
इति करपत्र
एकं अत्र तत्र चाप्टर् इट् इस् अ चाप्टर् नम्बर् आन् इट् न आन् द टाप्
चाप्टर् नम्बर्
एकनिमिषम्
पुटसङ्ख्या इति षड् त्रयशीतिः अपि
त्रयशीतिः हा 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 तदेव भगिनि, धन्यवादः।
चिन्ता न, प्राब्लम्।
हा 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 अस्तु, अस् धातु अस्तु 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 प्रथम तु नवसप्ततिः एकम् अभ्यासः अस्ति। अभ्याससङ्ख्या किम्? अष्टपञ्चाशत् इत्युक्ते एकं चित्रं दत्तं, तत्र अध्यापकः, मञ्जुला, भिन्नभिन्न लघु लघु कोष्ठानि तत्राणि तत्र दत्तं, रजनी, हरे कृष्णः, श्रीविद्या, मालिनी, कृष्णः, माला, शारदा, गणेश, अपि च गोपाल, इन् सिटिङ्ग् इन् अ सर्कल्, बाक्सेस् इन् अ सर्कल्,
पश्यति वा?
अस्तु, तदेव वयं कुर्मः। प्रथम तु पापजि, हा हा पठतु भगिनि।
आं भगिनि, विद्यालयस्य बालकाः क्रीडार्थं मण्डलाकारणे उपविष्टाः मण्डलाकारेण उपविष्टाः सन्ति। एकः अन्यस्मै कन्दुकं ददाति, कः कस्मै दत्तवान् इति अधः निर्दिष्टम् अस्ति। तदा दारेण वाक्यानि लिखत।
पुनः एकम् किञ्चित् अर्थ वदतु, अधुना किं पठितवती?
विद्यालयस्य 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 बालकाः क्रीडार्थं क्रीडनं
कृतवन्तः
मण्डलाकारेण इति अर्थं न जानामि.
मण्डल इत्युक्ते किं भगिनि?
भूमण्डल.
भूमण्डलस्य आकारः कः?
मण्डलाकारेण
मण्डलाकारेण तृतीया अस्ति इत्युक्ते मण्डला कर्के बनाके गोला बनाके अवगतवती वा? उपविष्टा. उपविष्टा इत्युक्ते बहुवचनरूपम्. उपविष्टाः के? उपविष्टाः
बालकाः. उपविष्टाः
बालकाः. उपविष्टाः के सन्ति?
बालकाः उपविष्टाः सन्ति.
द्वयोः शब्दयोः मध्ये
विशेषणविशेष्यभावमस्ति.
क्रीडार्थं कीदृशपदम्?
क्रीडार्थम् इति चतुर्थी.
चतुर्थी अर्थः अस्ति. उत्तमं, तदेव. क्रीडार्थं मण्डलाकारेण उपविष्टा. उपविशति इति तु लट् रूपम्. उपविशति, उपविशतः, उपविशन्ति. किन्तु अत्र भूतकालार्थकरूपमस्ति. उपविष्टा, बालकाः उपविष्टाः. यथा रामः रामाः भवति, उपविष्टः बालकः उपविष्टः, बालकाः उपविष्टाः, बालिका उपविष्टा, बालिकाः उपविष्टाः. अन्य किमपि अस्ति चेत् यथा किं पाञ्चालिका उपविष्टा. अत्र तु क्त प्रत्यय आयाति. क्त प्रत्यय किं दर्शयति? भूत कालार्थक. भूतकाल दर्शयति. क्त प्रत्यय योजयित्वा उपविष्ट इति सन्धि कृत्वा उपविष्टौ उपविष्टाः. पुंलिङ्ग् अस्ति चेत्, स्त्रीलिङ्ग् अस्ति चेत् उपविष्टा, उपविष्टे, उपविष्टाः. नपुंसकलिङ्गम् अस्ति चेत् वदतु.
उपविष्टम्, उपविष्टे, उपविशानि.
तदेव सुन्दरं भगिनि. एकः अन्यस्मै इत्युक्ते?
एकः अन्यस्मै कन्दुकं ददाति. एक बालकः अन्यस्मै कन्दुकं ददाति
इत्युक्ते किम्?
बालकः गिविङ्ग् द बाल् टु द नेक्स्ट् वन्. अन्यस्मै कन्दुकं ददाति.
किमर्थम् अन्यस्मै? किमर्थं द्वितीयविभक्ति नास्ति तत्र? एकः अन्यं ददाति, किमर्थं कन्दुकं ददाति? तदेव कर्मपदमस्ति.
इति ददाति चतुर्थविभक्ति स्वीकरोति.
दाधातु, दाधातु चतुर्थी एव स्वीकरोति. तदेव उत्तमम्. अन्यस्मै कन्दुकं ददाति. हा, कः कस्मै दत्तवान्? दत्तवान् कीदृशपदम्?
दत्तवान् इति भूतकालार्थक त्वान्तपदमस्ति.
त्वान्त तु नास्ति.
त्वान्त नास्ति, भूतकालार्थक लङ्लकार अस्ति.
न न, लङ्लकार अपि नास्ति. तवतु,
तवतु,
तवतु प्रत्यय, तवतु. तवतु प्रत्यय अपि भिन्नभिन्न लिङ्गरूपाणि स्वीकरोति. दत्तवान्, हा दत्तवती, अपि च नपुंसकलिङ्गमस्ति चेत् दत्तवत्, दत्तवत्. कः कस्मै दत्तवान् इति अधः निर्दिष्टम्. इत्युक्ते किम्?
निर्दिष्टं भगिनि.
हा, निर्दिष्टम् इत्युक्ते
दृष्टम् इस् सीङ्ग्, लैक् यू केन् सी. निर्दिष्टम्,
निर्दिष्टम् अस्ति, अधः निर्दिष्टम् अस्ति. अधः अधः यदि वयं पश्यति, यदि वयं पश्यामि अधः भागे, यदि वयं पश्यामः, तदनन्तरं किम् अवगतवन्तः?
बालकाः मण्डलाकारेण उपविष्टाः सन्ति इति अभवत्.
किन्तु कः कस्मै दत्तवान् इति निर्दिष्टम् इत्युक्ते किम्?
हु गिव्स् टु हूम्
इति निर्दिष्टम्. निर्दिष्टम् इत्युक्ते
निर्दिष्टम् इत्युक्ते इट्स् एन् इण्डिकेशन्.
हा, इट् इस् शोयिङ्ग्, टु शो. अधः निर्दिष्टम् अस्ति, ल्युडन्तरूपम् अस्ति. तत्र ल्युडन्तरूपं नपुंसकलिङ्गं पदं निर्दिष्टम् अस्ति. तदनन्तरं तदाधारेण, तदाधारेण इत्युक्ते,
तदाधारेण इत्युक्ते यूसिङ्ग् दट्.
पद विभजनं करोतु.
तत् आधारेण,
तत् आधारेण, आधारेण तृतीयविभक्ति. वाक्यानि लिखत, लिखत कीदृशपदम्?
लिखत इति लोट्लकार लोट्लकार बहुवचन,
बहुवचन अपि च पुरुषः,
पुरुषः इति प्रथमपुरुष,
प्रथमपुरुष अस्ति चेत् लिखतु.
लिख प्रथमपुरुष लिखतु, लिखतु, लिखतां, लिखन्तु. लिखत इति मध्यमपुरुष बहुवचनमस्ति.
सर्वाणि रूपाणि वदतु. लिख,
लिख, लिखतात्, लिखतं, लिखत.
लिख, त्वं लिख, युवां
लिखतं,
लिखतं यूयं
लिखत
लिखत उत्तमं कर्तृपदम् अस्ति चेत् वाक्ये यूयं तत् आधारेण वाक्यानि लिखत तदेव उत्तमं प्रथमं करोतु भगिनी यदा यत्र एक संख्या एकमस्ति वदतु भगिनी
गोपालः कन्दुकं गणेशं ददाति
गणेशं ददाति वा गणेशः ददाति वा गणेशः ददाति इत्युक्ते कर्तृपदं
गोपालः कन्दुकं
गोपालः लघुवाक्यं किं गोपालः ददाति किं ददाति
गोपालः कन्दुकं ददाति
कन्दुकं ददाति न अधुना प्रश्नः कः
कः ददाति
कः ददाति न
भगिनि
तत्तु दत्तमेव कः कस्मै दत्तवान् इति अधः निर्दिष्टम् अस्ति कस्मै ददाति इत्युक्ते किम् अर्थ उत्तरं कस्य विभक्तिरूपम् अस्ति
चतुर्थी
एव गोपालः
गोपालः कन्दुकं गणेशाय ददाति
उत्तमम् अपि च गोपालः कन्दुकं गणेशार्थं ददाति अपि समीचीनम् किन्तु चतुर्थी एव इति अपेक्षा अस्ति पापाजी अग्रिमं पठतु गोपालः गणेशाय कन्दुकं ददाति गणेशः
शारदा
शारदा किम् न द्वितीय न साहाय्यं करोतु भगिनि
शारदायै ददाति
वदतु पापाजी
शारदायै कन्दुकं
ददाति उत्तमम् अग्रिमं करोतु भगिनि
शारदा कन्दुकं मालायै ददाति
अग्रिमं पापाजी
माला कन्दुकं कृष्णं
चतुर्थी कृष्णाय
कृष्णाय ददाति
रामाय कृष्णाय ददाति अग्रिमं करोतु भगिनि
कृष्णः कन्दुकं मालिन्यै ददाति
मालिन्यै ददाति उत्तमं दीर्घ ईकारान्त स्त्रीलिङ्ग् पदम् अस्ति चेत्
नदीवत्
नद्यै पापाजी मालिनी
मालिनी कन्दुकं श्रीविद्यायै
उत्तमम् अग्रिमम्
श्रीविद्या कन्दुकं हरिकृष्णायै ददाति हरे कृष्णायै ददाति
कृष्णाय ददाति अग्रिमम् हरे कृष्णः
हरे कृष्ण कन्दुकम्
रजन्यै स्त्रीलिङ्ग् पदं ददाति तदनन्तरं रजनी भगिनि
रजनी कन्दुकं मञ्जुलायै ददाति
मञ्जुलायै ददाति पापाजी मञ्जुला
मञ्जुला कन्दुकं
अध्यापकाय ददाति. अग्रिमं भगिनि.
अध्यापकः कन्दुकं गोपालाय ददाति.
उत्तमं, तदेव सुन्दरं सुन्दरम् अभ्यास एव, सरलमेव. अधुना अग्रिमपुटे अग्रिमपुटे अस् धातुतः वर्तमाने भूते च इति शीर्षकः अस्ति. अस् धातुत हस् धातु इत्युक्ते किं भगिनि?
अस्धातु इति
कीदृशधातु?
वादिगणः धातु.
हा, वादिगणे. अपि च अन्य किमपि जानाति वा तस्य कृते?
किमपि गुणः नास्ति.
ओ, गुणः. हा, गुणः नास्ति चेत् अस् धातु कस्य गणस्य सदस्यः अस्ति?
गुणः नास्ति चेत् तुदादिगणः अपि भवितुम् अर्हति.
हा, तुदादि तु अपि भवितुम् अर्हति, किन्तु अस् धातु कीदृशधातु भगिनि?
कीदृशधातु इत्युक्ते
समीकरोतु भगिनि. भ्वादि तु नास्ति. भ्वादि अस्ति चेत् मध्ये शप् आयाति. मध्ये शप् आयाति, असति भवति. किन्तु वयं कथं वदामः? अस्ति
अस्ति, किमपि विकरण नास्ति मध्ये. अदादिगणः अस्ति. सोरि,
तदेव भगिनि. उत्तमम्. अदादिगणे अदादिगणस्य संख्या किम्?
द्वितीयगणः अस्ति.
द्वितीयगणः, तद् तस्य नाम अपि अस्य धातुतः अस्य धातुतः आयाति. अयं धातुतः आयाति
पूर्वम् इति आयाति न धातुः.
अस् अदादि. उत्तमं. हा, अस्ति अस्ति, अत् अस्ति चेत् अस्ति. हा, उत्तमं. सो अस् धातु धातुः वर्तमाने भूते च इत्युक्ते
इन् द प्रेसेण्ट् टेन्स् अण्ड् इन् द पास्ट् टेन्स्.
उत्तमम् उत्तमम्. हा, प्रसादः. हा भगिनी, प्रसादः पपजि अनिलः. हा, वदतु.
मित्र, गृहे कोऽपि नास्ति किम्?
अनिलः वदतु पपजि. अनिलः,
सर्वे सन्ति. अनुजः पठन् अस्ति, पिता जपन् अस्ति, माता पाठशालायाम् अस्ति, अनुजा अपि तथैव.
भवान् किं कुर्वन् अस्ति?
अहं विज्ञानपुस्तकं पठन् अस्मि.
अद्य भवान् विद्यालयं न आगच्छति इति वार्ता.
गृहसदस्याः वयं सर्वे शिवगङ्गां गच्छन्तः स्म. भवान् अपि आगच्छति किम्?
न भोः, अहम् इदानीं विद्यालयं प्रति प्रस्थितवान् अस्मि.
अनुजा भगिनी, अनुजा
अग्रज, अद्य भवन्तः सर्वे आगतवन्तः आसन् किम्?
अग्रजः.
वयं सर्वे आगतवन्तः आस्म. भवती अस्मान् न दृष्टवती किम्?
वेदिकाम् आगतवती अहम् एकवारं भवन्तं दृष्टवती. भवतः पार्श्वे तातः न आसीत्, अम्बा अपि न आसीत्.
अहं मित्रैः सह उपविष्टवान् आसम्.
उत्तमम् उत्तमम् अस्तु. वार्ता इत्युक्ते सम्भाषणद्वयम् अस्ति तत्र. प्रथमसम्भाषणे किम् अभवत् वदतु भगिनी, स्वस्य वाक्यैः वदतु.
प्रसादः अनिलः अनिलहं पृच्छति गृहे कोऽपि अस्ति वा इति. अनिलः उत्तरं वदति सर्वे सन्ति इति. अनुजः
कः कः किं करोति इति अपि
उक्तवान्. प्रसादः अनिलः किं कुर्वन् इति पृच्छतः पृच्छति. अनिलः उत्तरं वदति विज्ञानपुस्तकं पठति इति. अद्य अनिलः विद्यालयं न गतवान्. प्रसादः इति पृच्छति गृहकार्यं गृहसदस्या वयं सर्वे शिव अनिलः कुटुम्बं सर्वे शिवगङ्गा गच्छन्तः.
अनिलस्य
कुटुम्बस्य
कर्तृपदं किम् अनिलस्य कुटुम्ब कीदृशपदम्
कुटुम्बम् इति नपुंसकलिङ्गपदमस्ति.
नपुंसकलिङ्गम् अस्ति चेत् प्रथमविभक्ति कर्तृपदम् अनिलस्य कुटुम्बम् कुत्र गच्छति
शिवगङ्गां गच्छति.
शिवगङ्गां गच्छति तदनन्तरम्
अनिलः प्रसादं पृच्छति भवान् अपि आगच्छति किम् इति. प्रसादः वदति न भोः अहम् इदानीं विद्यालयं प्रस्थितवान्
इत्युक्ते यत् अहं गृहं तु नास्ति गृहतः अहं विद्यालयं गन्तुम् आरम्भं करोमि अधुना इति. गृहे नास्ति अपि च विद्यालये अपि नास्ति
मध्ये किमपि
स्थाने अस्ति. प्रस्थितवान् अस्मि. अस्तु अधुना सम्भाषणे नास्ति प्रथम तु स्थूलवर्णं दत्तम् एकं पदं नास्ति अपि अस् धातुतः आयाति न अस्ति. गृहे कोऽपि इत्युक्ते कः अस्ति कः कर्तृपदमस्ति कः किमपि सन्धि भूत्वा तत्र विसर्गसन्धि अपि च तदनन्तरं पूर्वरूपसन्धि आदेशः भवति तदनन्तरम् अस्ति इत्युक्ते न अस्ति किम्. गृहे कोऽपि नास्ति वा गृहे कोऽपि नास्ति किं द्वयो अपि समीचीनं. तदनन्तरं सर्वे सन्ति अनुजः पठन् अस्ति इत्युक्ते किम्
प, पठन् इति भूतकालार्थकः अस्ति.
ओके, अस्ति तत्र
अस्ति इस् देर्
अस्ति एकम् एक एकक्रिया तत्र अस्ति. अस्ति क्रियापदं द्वे क्रियापदमस्ति पदे अस्ति द्वे क्रियापदे अस्ति. एकं तु पठन् द्वितीयक्रियापदम् अस्ति. अधुना अस्ति तु मुख्यक्रिया अस्ति. अपि च पठन् शर्तृ शर्तृपदं शर्तृरूपं शर्तृरूपम् इत्युक्ते किं शर्तृरूपम् इत्युक्ते किं यदि एकमेव समये एकस्मिन् समये कार्यद्वयं स्तः तदनन्तरं प्रथमकार्य तु शत्रन्तरूपम् अस्ति इत्युक्ते पठन् पढ़ते हुए हूँ पढ़ रहा हूँ पढ़ रहा हूँ. हिंदी भाषायाम् अपि क्रियापदं द्वि क्रियापदम् स्तः पढ़ना एंड रहना. पठन् अस्ति शत्रपदम् अस्ति चेत् तस्य परः इत्युक्ते तस्य परे इत्युक्ते तस्य पृष्ठतः उसके बाद् तस्य अनन्तरम् एकम् अन्यक्रियापदं तु अस्ति एव. अधुना किम् अस्ति पठन् अस्ति इत्युक्ते वर्तमानकाले अस्ति वर्तमानकाल पठन् अस्ति. पिता जपन् अस्ति इत्युक्ते
पिता जप करते हैं
जपं करोति अपि च तत्र अस्ति कार्यद्वयं जपं करोति अपि च तत्र अस्ति. अस्ति एकं क्रियापदमस्ति धातुतः आयाति इत्युक्ते क्रिया एव. प्रथमक्रिया किं जपनं द्वितीयक्रिया किम् अस्ति सः अस्ति. हा अग्रिमं वाक्यं
माता पाकशालायाम् अस्ति
इत्युक्ते
माता पाकं करोति
तत्तु वयं न जानामि न जानामि.
हा सत्यं
पाकशालायां फोन् मध्ये वार्तालाप करोति अस्मा किमपि
पाकशालायाम् अस्ति इति
इत्युक्ते किम् पाकशालायां कीदृशपदं रूपं किं
पाकशालायाम् इति सप्तमी अस्ति पाकशाला रमावत् सप्तमी सप्तमी पाकशालायां
कीदृश कीदृशपदं
स्त्रीलिङ्गपदं स्त्रीलिङ्ग सप्तमी एकवचनपदम्
तदेव पाकशालायाम् अस्ति पाकशाला मे है उत्तमम्. अग्रिमम् अनुजा
अनुजा अपि तथैव
इत्युक्ते
अनुजा अपि पाकशालायाम् अस्ति
तथैव तथैव कीदृशपदम्
तत् एव तत् इव
पपजि तथैव तथा एव तथा एव इत्युक्ते किम् इत्युक्ते किं पपजि वैसे हि वैसे हि किमपि अभवत् तथा एव उत्तमम्. तदनन्तरं भवान् किं कुर्वन् अस्ति, कीदृशपदं तत्र कुर्वन्?
कुर्वन् इति अपि शत्रु अस्ति, शत्रुपदम्
शत्रन्तपदमस्ति. उत्तमं. शत्रन्तपदमस्ति इत्युक्ते क्रिया द्वे. हा, ते के?
कुर्वन् अपि अस्ति.
हा, कुर्वन् अपि अस्ति. अनुवादं करोतु.
भवान् किं कुर्वन् अस्ति, what are you doing there, what are you doing, kim kurvan asti.
Ityukte prathama kriya tu kurvan. What are you doing, api cha anya kriya asti, you are there. Just to be there is a kriya. Kurvan asti. Tadanantaram aham
विज्ञानपुस्तकं पठन् अस्मि. अहं विज्ञानपुस्तकं पठन् अपि अस्मि.
पठामि अपि च अत्र अस्मि. अहं पठामि अपि च अत्र अस्मि एव. तदेव सुन्दरं.
शत्रन्तरूपम् इति प्रथमपुरुष अपि उत्तमपुरुष किमपि भेदं नास्ति. कुर्वन् पठन् भवान् किं कुर्वन् अहं पठन् इति
न रूपं तु भिन्नरूपम् अस्ति एव. एकनिमिषः, मम पार्श्वे एकं पुस्तकम् अस्ति. अधुना तु विभक्तिरूपम् अस्ति चेत् तस्य संज्ञापदं भगिनि.
ओके.
हा, प्रत्यय अस्ति चेत् संज्ञापदम् इत्युक्ते क्रिया तु द्वयम् अस्ति किन्तु क्रियापदं तु एकमेव अस्ति. शत्रन्तरूपं तु संज्ञापदम् अस्ति इत्युक्ते क्रिया निर्दिशति किन्तु स्वयं तु क्रियापदं नास्ति. अहं पठन् अस्मि, भवान् कुर्वन् अस्मि, कुर्वन् कुर्वन्तौ कुर्वन्तः इति प्रथमविभक्ति. कुर्वन्तं कुर्वन्तौ कुर्वन्तः तदेव कुर्वन्तः द्वितीया बहुवचनरूपं. कुर्वन्तेन कुर्वन्ताभ्यां तदेव भगिनि.
आं भगिनि,
विभक्तिरूपाणि.
संज्ञापदमस्ति.
प्रश्न तु समीचीनं. हा, अग्रिमम्.
अद्य भवान् विद्यालयं न आगच्छति इति वार्ता.
इत्युक्ते
अनिलः किमर्थं विद्यालयं न आगतवान्?
तदेव पृच्छति. किमर्थं न आगतवान्? उत्तमम्. इति वार्ता कीदृशपदम्?
वार्ता इति आकारान्तस्त्रीलिङ्गपदम्.
वार्ता उत्तमं वार्ता उत्तमम् अग्रिमम्
अनिलः वदति गृहसदस्य वयं सर्वे शिवगङ्गां गच्छन्तः इति
गच्छन्तः स्म स्म कीदृशपदम्
स्म इति प्रयोगम् अहं न जानामि
स्म बाबाजी स्मः गच्छन्ति स्मः अस्मि स्मः सन्ति अपि उत्तमं स्मः स्मः इत्युक्ते यदि किमपि तत्र दत्तं काल तु भूत् आदेशः करोति स्म स्मः अस्ति चेत् वाक्ये स्मः अस्ति चेत् भूतकालार्थक निर्दिशति गच्छन्तः स्म गए थे
वयं सर्वे शिवगङ्गां गच्छन्तः जा रहे हैं
गच्छन्तः सन्ति शत्रुन्त अस्ति चेत् गच्छन्तः न गच्छतः गच्छन्ति गच्छन्ति तु लट् गच्छामः वयम् अस्ति चेत् गच्छामः लट् रूपम् अस्ति चेत् शत्रुन्तरूपम् अस्ति चेत् गच्छन्ति स्म गच्छन्ति आम् गृहसदस्याः वयं सर्वे शिवगङ्गां गच्छन्तः स्म सो गच्छन्तः यथा पापाजी उक्तवान् अस्तु अहं शत्रुप्रत्ययरूपाणि एकवारं अन्वेषणं करोमि प्रत्यय रूपाणि अस्तु तत्र पठन् पठन्तौ पठन्तः भगिनी एकं लिङ्क् अहं प्रेषयामि तत्र पश्यतु पश्यतु भगिनि किञ्चित् स्क्रोल् करोतु अधोभागे पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः पठता पठद्भ्यां पठद्भिः पठते पठद्भ्यां पठद्भ्यः पठतः पठद्भ्यां पठद्भ्यः पठतः पठतोः पठतां पठति पठतोः पठत्सु हे पठन् हे पठन्तौ हे पठन्तः सर्वाणि शत्रुन्तरूपाणि अस्ति पुंलिङ्ग् अस्ति चेत् स्त्रीलिङ्ग् अस्ति चेत् पठन्ती पठन्त्यौ पठन्त्यः पठन्तीं पठन्त्यौ पठन्तीः नदीवत्
नदीवत्
पठन्त्या पठन्तीभ्यां पठद्भिः नदीभिः पठन्त्यै पठन्तीभ्यां पठन्तीभ्यः पठन्त्याः पठन्तीभ्यां पठन्तीभ्यः पठन्त्याः पठन्त्योः पठन्तीनां पठन्त्यां पठन्त्योः पठन्तीषु हे पठन्ति हे पठन्त्यौ हे पठन्त्यः अपि नपुंसकलिङ्ग् अस्ति चेत् पठतु भगिनि.
पठत् पठति पठन्ति पठत् पठन्ति पठन्ति शेषं पुंलिङ्ग् पठता पठद्भ्यां पठद्भ्यः पठद्भिः पठद्भिः पठते पठद्भ्यां पठद्भ्यः पठतः पठद्भ्यां पठद्भ्यः पठतः पठतौः पठतोः पठतां पठति पठतोः पठत्सु.
उत्तमम् उत्तमम् अस्तु. किञ्चित् एवमेव अहं तु वदामि. अस्माकं वर्गे तु तत् आवश्यकं नास्ति अधुना, किन्तु शत्रन्त एकं रूपम् अस्ति इति तु एवमेव वदामि.
पठन् इति नकारान्तशब्दं वा?
प्रातिपदिकम् इत्युक्ते किम्?
हा
प्रातिपदिकं न नकारान्त नास्ति भगिनि, अकारान्त एव. पठ् पठ् इत्युक्ते एकनिमिष पठ् हलन्तपदमस्ति चेत् पठ वा? प्रश्न तु समीचीनं. पठ एकम् एकवारम् एकम् इति समानप्रश्न एकवारं कक्ष्यां तु भवति आसीत्, किन्तु अहम् अन्वेषणं करोमि भगिनि.
प्रश्न
समीचीनं. पठ शत्र पठत् नकार अस्ति चेत् तु रूपाणि भिन्न भिन्नानि अस्ति भगिनि. नकारान्त अस्ति चेत् हा
इति अहं मन्ये, बिकास् युवन् इति युवन् अपि
अहं मन्ये अकारान्त एव भगिनि. पठ अकारान्त पुंलिङ्गरूपम् अस्ति एव, अपि च अकारान्त नपुंसकलिङ्गम् अस्ति पठ पठ इति अहं मन्ये, किन्तु अन्वेषणं कृत्वा तु वदामि भगिनि. उत्तमम् अस्तु. अधुना अग्रिमं गच्छन्तः स्म अस्ति चेत् स्म किं करोति? स्मः किं करोति भगिनि वदतु.
स्मः इति बहुवचन क्रियापदमस्ति.
स्मः बहुवचनक्रियापदमस्ति वा? एकवारम् अन्वेषणं करोतु. स्मः
स्मः
अव्ययपदं भगिनि.
अव्ययपदम् ओ अहं विस्मृतवती इति अस्मि स्व 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 स्वः स्वम स्व स्म इति.
पापाजी पुनः वदतु. अस्मि अस्ति स्म इति वदति वा? एकवारं तु वदति, किन्तु स्म तु अत्र किं करोति, भूतकालार्थक निर्दिशति भगिनि.
ओके ओके. अस्मि स्वः स्मः इति कथं ज्ञातुं शक्नुमः भूतकालार्थक वा
अस्तु अधुना
लट्लकारः वा इति
अस्तु अधुना संस्कृत स्पोकन् संस्कृत मध्ये एकवारं पश्यतु भगिनि स्मः स्मः अस्ति चेत् स्म एव आयाति प्रथमदत्तं स्म इम्पार्टिङ्ग् पास्ट् टेन्स् तदेव अधुना वसति स्म चतुर्थरूपं न पञ्चमरूपं वसति स्म ही शी लिव्ड् वसति इत्युक्ते लिव्स् वसति स्म इत्युक्ते ही शी लिव्ड् इति अधुना अन्य अधोभागे अपि गच्छतु एकम् अन्यरूपम् अस्ति वक्तव्यम् आसीत् करोमि स्म करोमि स्म वुड् हेव् डन् इट् फस्ट् टेन्स् वक्तव्यम् अधुना तु सन्दर्भे वक्तव्यम् आसीत् इत्युक्ते इफ् दिस् देन् देट् वक्तव्यम् आसीत् वक्तव्यम् आसीत् अगर तुमको बोलना था दैट्स व्हाट ही इज़ सेइंग वक्तव्यम् आसीत् तुमको बोलना था करोमि स्म तुमको बोलना था मैं करता तदनन्तरम् अधोभागे भवतो माता किं करोति स्म वाट् वाज़् युवर् मदर् डूयिङ्ग् करोति अपि भवतो माता किं करोति तु वर्तमानकाले भवतो माता किं करोति स्म वाट् वाज़् युवर् मदर् डूयिङ्ग् सीता रावणं न गणयति स्म इत्युक्ते किम्
Did not care for Ravana.
Ah, it's not worth even counting. Nothing. Hena? Ganayati sma. Sita Ravanam na ganayati sma. She did not care for Ravana. Ganayati. Then you'll only count if you start to pay attention, no? Na ganayati. कुछ गिनते ही नहीं है दे डोंट काउंट फॉर एनीथिंग सी इन इंग्लिश ऑल्सो वी यूज दैट नो इट डिडंट काउंट फॉर एनीथिंग यू से दैट नो समथिंग वाज यूजलेस अस्तु तदनन्तरं अधोभागे
इति स्मा स्मा सर्वं लट्लकार रूपम् इति अधोभागे आयाति वा नेक्स्ट् पार्ट् लैक् ओके
द नेक्स्ट् कान्वर्सेशन् वा
नहीं न इति इति ऐ वास् आस्किङ्ग् दिस् करोति स्म गणयति स्म सो आल् आर् लट् रूपं सो नेक्स्ट् स्म कम्स् इट् इम्पार्ट्स् पास्ट् टेन्स्
And it comes after.
After, yeah.
Always it comes after.
Okay.
Aduna ekam anya asti tatra adubhage. Vayam idanim anyasmin grahe smaha. Ityukte kim?
Anyasma vayam idanim. We went to we anyasma.
वसति स्मः न केवल स्मः वयम् इदानीम् अन्यस्मिन् गृहे स्मः
इति स्मः लट्लकाररूपमस्ति
समान इव लट् रूपम् इव वयम् इदानीम् अन्यस्मिन् गृहे स्मः तदनन्तरं भिन्नभिन्नरूपम् उदाहरणम् अस्ति अस्तु भवतः सङ्केतम् एव न जानामि स्म इत्युक्ते न जानामि स्म ऐ डिड् नाट् नो न जानामि स्म तदनन्तरं बालिका किमपि आवश्यकम् इति वदति स्म बालिका किमपि आवश्यकम् इति वदति स्म The girl was asking for something. Tadanantaram Eshah Nimeshah Vilambah Chet Aham Gachhami Sma. Ekah Nimeshah Vilambah Chet. Ekah Nimeshah Vilambah Chet Ityukte Ekah Nimeshah 1 minute. Yes. एकः निमेषः विलम्बः देर् होति चेत् तो अगर् देर् होति तो अहं गच्छामि स्म ऐ वुड् हेव् गान् गुड् 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 जाब् यु जस्ट् केम् यु नो ऐ वुड् हेव् लेफ्ट् मया मद्यपानं त्यक्तव्यम् इति मम वैद्यः वसति स्म मया मद्यपानं त्यक्तव्यं त्यक्तव्यम् इत्युक्ते करणीयम् इत्युक्ते प्लीस् गिव् इट् अप् यु शुड् संथिङ्ग् शुड् शुड् वाट् शुड् त्यक्तव् शुड् त्यजतु मया तृतीय मया बै मीन्स् आफ् मी दिस् इस् द कर्मणि रूप भगिनी ऐ वास् मेन्शनिङ्ग् अर्लियर् मया मेरे द्वारा मद्यपानं छूट जाए मेरे द्वारा मद्यपानं छूट जाए इति मम वैद्यः वदति स्म मीन्स् बै मीन्स् आफ् दिस् बाडी मे ऐ बि एबल् टु लीव् वट् एवर् मद्यपानम् इति हा अन्तिमम् भोजनापणानां पुरतः दृश्यमाना अनुपङ्क्तिः मम मनसि आतङ्कं वर्धयति स्म किमपि बहु दीर्घः अस्ति अधुना तु त्यजतु अस्तु स्म तु एकम् अव्ययपदम् अस्ति अपि इम्पार्टिङ्ग् पास्ट् टेन्स् अपि अस्तु अवगतम् हा गृहसदस्याः वयं सर्वे शिवगङ्गां गच्छन्तः स्म कीदृशपदं तत्र शत्रुपदमस्ति चेत् गच्छन्तः पठन्तः पठन्तः कुत्र अस्ति भगिनी एकवारं पश्यतु लिङ्क् मध्ये दत्तं पठन् पठन्तौ पठन्तः अवगतं भगिनि
आं भगिनि
पठन् पठन्तौ पठन्तः उत्तमं अग्रिमं पठतु
अग्रज अद्य भवन्तः सर्वे आगतवन्तः आसन् किम्
इत्युक्ते
आगतवन्तः आसन् इति
आसन् कीदृशपदम् अस् धातु पश्यतु एकवारम् अष्टाध्यायी मध्ये अस् धातु
आसन् इति लङ् लकारः बहुवचनरूपमस्ति
सर्वाणि रूपाणि एकवारं वदतु
लङ् रूपाणि आसीत् आस्ताम् आसन् आसीः आस्तम् आसत् आसत आस्त आस्त आसम् आस्व आस्म
एकवारं पुनः वदतु
आसीत् आस्ताम् आसन्
लघुवाक्यं वदतु लघुवाक्यं
रामः आसीत् राम ते आस्ताम् रामलक्ष्मणौ आस्ताम् रामलक्ष्मण भरत आसन् च आसन्
आसन् कीदृशपदं तत्र बहुवचन प्रथमपुरुष आसन् अग्रिमं त्वं
त्वम् आसीः युवा आस्तम्
आस्तम्
आस्तम् यूयम् आस्त
आस्त यूयम् आस्त लिखत पठत आस्त इत्युक्ते किं धातु तदनन्तरं त लिख योगत लिखत पठत आस्त किमर्थं पठ किमर्थं पठ भवत् मध्ये शप् आयाति अकार आयाति पठ धातुतः पठ तदनन्तरं त किन्तु अत्र तु अदादिगणे अस्ति विकरणप्रत्यय तु लोपः भवति यूयम् आस्त तदनन्तरम्
अहम् आसम् आवाम् आस्व वयम् आस्म
अहं शिशुः अस्मि आसम् अहं शिशुः आसम् अहं बालिका आसम् न लङ्लकार भूतकालार्थक अहं बालकः आसम् अहं दिल्लीनगरे आसम् भूतकालार्थक अधुना तु दिल्लीनगरे नास्मि आवां वदतु भगिनि
आवाम् आवाम् आवां दिल्लीनगरे आस्व
आवां दिल्लीनगरे आस्व अपि च आवां मातुः गृहे आस्व वि बोत् यूस् टु लिव् वित् अवर् मदर् नो नौ वि डोण्ट् सो मातुः गृहे आस्व वयं
सर्वे देवालयम् आस्म
वयं सर्वे देवालये आस्म देवालये आस्म उत्तमम् अस्तु आसन् किम् इत्युक्ते वचन किम्
बहुवचन
बहुवचन उत्तमम् उत्तमम् अग्रिमम् आम्
वयं सर्वे आगतवन्तः आसम् आत्म
कीदृशपदम्
आत्म इति लङ्लकार उत्तमपुरुषबहुवचनम्
वयम् आस्म, वयम् आस्म, युवाम् आस्व, नो युवाम् आस्तम्, आवाम् आस्व, मनसि तु न न सन्ति ते मम मनसि. अस्तु अग्रिमं भवती अस्मान् न दृष्टवती किम् इत्युक्ते
भवती अस्मान् न दृष्टवती किम्? Didn't you see me?
अस्मान् कीदृशपदम्?
अस्मान् अस्मान् इति मुझ्को
कीदृशपदम्? प्रातिपदिकं किं तत्र?
अस्मत् प्रातिपदिकं
रूपाणि वदतु.
अहम्, आवां, वयम्. नो नो, अस्मान् इति बहुवचनमस्ति.
अस्मान् प्रातिपदिकं वदतु भगिनि.
अहम्, आवां, वयं, मां, मा, आवां, नौ, अस्मान्, नः.
अस्मान् नः
द्वितीयविभक्ति बहुवचनमस्ति.
प्रातिपदिकम् अस्मद्
अस्मद्
अस्मद् अस्ति चेत् अधुना तु किम्? अस्मान् न दृष्टवती किम् इत्युक्ते किं विभक्तिरूपं किम्?
अस्मान् न दृष्टवती किम् इति द्वितीयविभक्ति अस्ति.
द्वितीयविभक्ति रूप वचनं
बहुवचनं.
बहुवचनम् उत्तमम्. अस्मद् अस्मद् That's how you can remember from the English word, no? Us.
Us, yeah.
That's how they get us, actually. From Asmad. And you for Yushmad. You for Yushmad,
huh? Yushmad, huh?
Uttamam. Huh, Agrivam?
Vedikam. Vedikam agatavati aham ekavaram bhavantam drishtavati. वेदिकाम् आगतवती अहमेकवारं भवन्तं दृष्टवती. भवतः पार्श्वे तातः न आसीत्. अम्बा आसीत्, अम्बा अपि न आसीत्.
आसीत् कीदृशपदम्?
आसीत् इति भूतकालार्थक प्रथमपुरुष एकवचनपदम्.
लङ् यथा रामः आसीत्, भवतः आसीत्, अम्बा आसीत्. उत्तमम्. अग्रिमम्.
अहं मित्रैः सह उपविष्टवान् आसम्.
उपविष्टवान् आसम् इत्युक्ते
उपविष्टवान् आसम् इति शत्रन्तरूपमस्ति. उपविष्टवान् अपि आसम् इति द्वयोः कार्यं भवति.
अत्र तु शत्रन्त अस्ति वा? पठितवान्, पठितवती, कीदृशपदं तत्र?
त्वान्तपदम्.
त्वान्त तु दृष्ट्वा इति.
त्वान्त न.
पठितवान् बालकः पठितवान् अहं गतवान्
तव तु
नकार तु अन्ते अस्ति किन्तु वान् इति अस्ति न तत्र तव तु भिन्नरूपं शत्रन्त अस्ति चेत् धातुतः न आयाति किञ्चित् भिन्न अस्ति न भगिनि
आं भगिनि शतन्त्ररूपम् अस्ति चेत् संज्ञापदम् इति अस्ति
अधुना अपि संज्ञापदं भगिनि
अपि संज्ञापदम्
प्रत्यय तु भिन्न अस्ति किन्तु तव तु प्रत्यय अधुना पुंलिङ्गरूपं तत्र तु शत्रन्तरूपम् अस्ति शत्रप्रत्यय भिन्नप्रत्यय तव तु प्रत्यय भिन्नप्रत्यय कार्यमपि भिन्न भेदः अस्ति तत्र अहं मित्रैः सह उपविष्टवान् आसम् अहम् आसम् तदेव
वारं वारं कृत्वा एव मनसि तिष्ठति उत्तमं पापाजि विशेषः अग्रिमं पुटे पठतु न न न अस्धातुतः अस्धातुः
वर्तमानकाले अस्ति सन्ति अस्मि स्म भूतकाले प्रथमपुरुष आसीत् आसन् उत्तमपुरुषे आसम् आस्म
आसीत् आसन् See, asan, is, you cannot confuse it for shatranta. See, that would be asan otherwise. As dhatu, na? So that's what you have to be careful. Asan, it seems, looks like shatranta, na?
Yeah. Yes, Pajani.
Asati tatra. Patatu, Papaji. As dhatu ho.
धातुः प्रथमपुरुषे अस्ति सन्ति सप्तमपुरुषे अस्मिन् स्मः भूतकाले प्रथमपुरुषे आसीत् आसन् उत्तमपुरुषे आसम् आस्म
अग्रिमं
मम गृहे कार्यानं
न अस् धातोः
धातोः प्रयोगः त्रिधा भवितुम् अर्हति किं तरीके से होता
त्रिधा इत्युक्ते त्रिधा द्विधा अष्टधा सप्तधा
द्विधा
द्विधा डिविजन् द्विधा सी एवरी टाइम देयर इज एन ऑप्शन देयर इज अ प्रॉब्लम बट समहाउ इन टुडेज वर्ल्ड द मोर ऑप्शंस वी गेट द मोर we think we are entitled and we should be happier. Actually, children today are very, very unhappy in school. Too many options. I don't know if you have that experience, but I certainly notice. Astu. So, mama grahi, asthatoho prayogah tridha bhavitum arhati. Ityukte kim bhagine?
Asthatoho prayogah त्रीणि विधानि सन्ति
त्रिधा भवितुं भवितुम् अर्हति इत्युक्ते
इट् इस् पासिबल्
होता है पासिबल् है सम्भव है होते हैं प्रथम पठतु पापाजी
मम गृहे कार्यानम् आसीत्
कार्यानम् आसीत् मम गृहे कर्तृपदं किम् कर्ता किं तत्र
मम
न अहं तु नास्ति मम अपि नास्ति अहम् अस्ति चेत् आसम् अहम् आसम्। अधुना कर्तृपदं किम्? कारयानम् नपुंसकलिङ्गं पदम्। कारयानम् आसीत्। कुत्र आसीत्? मम गृहे आसीत्। अग्रिमम्?
अद्य केशव आगतवान् आसीत्।
इत्युक्ते
नौ केशव
आगतवान् आसीत्। आगतवान् आसीत्। अग्रिमम्?
प्रातः गोपालः मार्गे गच्छन् आसीत्। प्रातः गोपालः मार्गे गच्छन् आसीत्। स्वगोपाल मार्ग से गया था।
उत्तमम्, उत्तमम्। वाक्यत्रयं दत्तं तत्र, मम गृहे कार्यानम् अस्ति इति अपि भवितुमर्हति। इत्युक्ते किं? मम गृहे कारयानम् अस्ति, अपि च प्रातः गोपालः मार्गे गच्छन् अस्ति, तदपि समीचीनम्। इत्युक्ते किम्? प्रातः गोपालः मार्गे गच्छन् अस्ति इत्युक्ते न गच्छन् अस्ति इत्युक्ते भगिनि, प्रातः गोपालः मार्गे गच्छन् अस्ति,
गच्छन् अस्ति।
यदि गच्छन् अस्ति इत्युक्ते किम्?
गोपाल गोस् इन् द मार्निङ्ग् इन् द पास्ट् मार्गे,
हा गोस् इन् द मार्निङ्ग्, वर्तमानकाले गच्छन् अस्ति इत्युक्ते शत्रान्तरूपं गच्छन्, प्रथम तु गच्छन् अपि च अस्ति, अधुना तु गच्छन् अपि च आसीत् इत्युक्ते भूतकालार्थक। अधुना किमर्थं भूतकालार्थक आसीत् रूपम् अस्ति? अपि च मम गृहे कारयानम् अस्ति, अस्ति अस्ति चेत् इत्युक्ते वर्तमानकाले। अद्य केशवः आगतवान् आसीत्। अद्य केशवः आगतवान् अस्ति, आगतवान् अपि अस्ति, आकर है, आते हुए है, बोलते, वी डोंट टॉक लाइक दैट, बट द अदर टू वी डेफिनेटली डू। उत्तमम्, उत्तमं भगिनी। अस्तु अस्तु, अग्रिमं करोतु।
अस्तातोः वर्तमानकालरूपेण रिक्तस्थानानि पूरयत् पूरयत। उदाहरणं, मित्र भवान् किं पुस्तकं पठन् मित्र भवान् किं पुस्तकं पठन् अस्ति?
पठन् इत्युक्ते मित्र भवान् किं पुस्तकं पठन् इति तु असमीचीनं। किमर्थम्? एकम् अन्य क्रिया, कन्यक्रियापदं नास्ति तत्र। नास्ति चेदपि अस्ति तु वयं मन्ये, भवितुमर्हति एव, किन्तु यदि वयं लिखितवन्तः तु असमीचीनं। क्रियापदं तु भवेत् इत्युक्ते समीचीनं रूपं किम्? मित्र भवान् किं पुस्तकं पठन् अस्ति? अग्रिमं पठतु।
मित्र पश्य वचनानुसारम् अहम् आगतवान् अस्मि, अस्मि, आगतवान् आसम्,
आसीत्,
आसीत्
न आसीत् तु भूतकालार्थः।
अहम्, अहम् इति आसम्,
अहम् आसम्, अहम् आसम्, वचनानुसारम् अहम् आगतवान् आसम् अपि अधुना अत्रैव अस्ति. ऐ केम् एण्ड् ऐ एम् स्टिल् हियर्. अग्रिमं पापाजि,
भवन्तः किमर्थं मार्गे क्रीडन्तः?
पूरयतु.
किमर्थं मार्गे क्रीडन्तः?
भवन्तः किमर्थं मार्गे क्रीडन्तः? भवन्तः किम् आसन् वा अपि च सन्ति वा? वर्तमानकाल अस्ति तु सन्ति.
किमर्थं मार्गे क्रीडन्तः? सन्ति.
सन्ति. किमर्थं वर्तमानकाले उपरि दत्तम् अभ्यासः अस् धातोः वर्तमानकालरूपेण रिक्तस्थानानि पूरयत. सन्ति. भवन्तः सन्ति. अग्रिमं करोतु भगिनि.
सः तूष्णीम् उपविष्टवान्. तूष्णीम् उपविष्टवान्.
सः
तूष्णीम् उपविष्टवान्
वर्तमानरूपं.
वर्तमानरूपम् अस्ति.
अस्ति एव. सः अस्ति उपविष्ट. तूष्णीम् उपविष्टवान् अस्ति इत्युक्ते
तूष्णीम्
इत्युक्ते
सः तूष्णीम् उपविष्टवान्
अस्ति इत्युक्ते. तूष्णीम् इत्युक्ते silently sitting, quietly sitting,
like Arjuna.
Like Arjuna. अस्तु. अग्रिमं पापाजि.
भवदीयं कार्यम् अहं प्रातः एव कृतवान्.
वर्तमानकाल.
भवदीयकार्यम् अहं प्रातः एव कृतवान्.
कर्तृपदं किं? तत् कर्ता किम्? अहं वर्तमानकाले. अहं लघुवाक्यम्. अहं
प्रातः गच्छामि.
न न न, अस् धातुतः अहम् अस्मि. अहम् अस्मि. अस्मि. सो भवदीयं कार्यम् अहं प्रातः एव कृतवान् अस्मि. कृतवान् अस्मि. अस्तु. अधुना भवदीयम् इत्युक्ते कार्यम् अहम्. अग्रिमं करोतु भगिनि.
वयम् इदानीं श्रीरङ्गपत्तनं प्रति गच्छन्तः स्मः.
स्मः. वयं स्मः. उत्तमम्. अग्रिमं पापाजि.
वयम् इदानीं
न, अग्रिमम्.
माता प्रातः चतुर्वादने एव उत्थिता.
माता
प्रातःकाले चतुर्वादने एव उत्थिता.
अस्ति. अस्ति चेत् माता कर्तृ किं? माता. माता किं? वर्तमानकाले अस् धातुतः अस्ति. माता अस्ति. 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 अग्रिमं भगिनि.
भोः अहं चायं कृतवती अस्मि, भवान् पीत्वा गच्छतु.
चायं कृतवती. उत्तमम्. अग्रिमं पापा. मम
लेखनी नष्टा.
लेखनी
नष्टा
अस्ति.
नष्टा अस्ति.
नष्टा अस्ति. नष्टा इत्युक्ते विशेषण अस्ति. लेखनी नष्टा.
स्त्रीलिङ्ग.
स्त्रीलिङ्ग. उत्तमं. नष्टा. नष्टी तु न. लेखनी तु ईकारान्त. नष्टा तु आकारान्त विशेषण. स्त्रीलिङ्ग तु एव किन्तु आकार. नष्टी तु न. अनुष अग्रिमं करोतु भगिनि.
केनापि समग्रं क्षीरं पातितं पातितं.
कर्तृपदं किम्?
केनापि समग्रं क्षीरं पातितं.
नास्ति तत्र.
नास्ति
तत् तु कर्मणि प्रयोगे अस्ति. केन? बै मीन्स् आफ् सम्बडि. केन अपि समग्रं कर्मणि प्रयोगम् अस्ति चेत् यथा कर्मरूपम् अस्ति, कर्मपदस्य रूपम् अस्ति, तथैव क्रियापदस्य रूपम् अस्ति. कर्मपदं किम्? समग्रं क्षीरं पतितं. पश्यतु न भगिनि. पतितम् अस्ति. केनपि समग्रं क्षीरं पतितम् अस्ति. पश्य. पश्य इत्युक्ते देखो.
देखो सी.
Somebody has finished. नहीं, गिरा दिया. क्षीरं पतितं. देखो. गिरा दी. तो इट इज देयर फॉलन. अस्ति अत्र एव. क्षीरं अस्ति. क्षीरं कुत्र अस्ति? पतितम् अस्ति. क्षीरं पतितमस्ति. अग्रिमम्.
वयं क्रीडन्तः वयं क्रीडन्तः मह. अम्बा मा आह्वयतु भवती.
हा, वयं क्रीडन्ति. वयं वर्तमानकाले स्मः. वयं क्रीडन्तः स्मः. अम्ब मा आह्वयतु भवती इत्युक्ते आङ्ग्लभाषायां वदतु.
आह्वयति. आह्वय इति
मा आह्वयतु.
मा आह्वयतु. Vayam, vayam, we are all playing. Amba, please don't call us. Ma ahvayatu bhavati.
You don't call us. Bhavati.
You don't call us.
Tadeva. Uttamam. Sundaram bhagini. Kinchit bhinna abhyasa adhyagayam kurmaha.
Am bhagini.
Kinchit nutana vishaya api. वयं किञ्चित् ज्ञातव्यम्
इति. कथम् अभ्यासम्?
अभ्यासदर्शिनी एकं पुस्तकमस्ति. उत्तमपुस्तकं. जनार्दन हेगडे महोदयेन कृतम्. अभ्यासदर्शिनी संस्कृतभारती एव.
ओके ओके भगिनि.
क्रीडतु भगिनि. उत्तमं पुस्तकं. बहु किमपि पुस्तकानि तु उत्तमानि अस्ति. अहं तु वदामि
यदि इच्छति तु अहं किञ्चित्.
आं भगिनि, भवती वदतु, नो इट् इट् विल् बि हेल्प्फुल् लैक् यु नो अभ्यासम् एव इति मनसि स्थापयामि.
एकमस्ति विभक्तिवल्लरी, तदपि बहु समीचीनं पुस्तकमस्ति विभक्तिवल्लरी. एकमस्ति विभक्तिवल्लरी लघु पुस्तकमस्ति, ओरेञ्ज् कलर्. तदनन्तरं गीतासोपानमस्ति भवत्याः पार्श्वे?
मम पार्श्वे नास्ति भगिनि, अहं पश्यामि गीतासोपानं.
हा, बहु सम्यक् पुस्तकमस्ति. अग्रिमवर्गे तु तदेव आयाति. एकं कृष्णस्य रूपम् अस्ति, पीकाक् फेदर् इस् देर् आन् द कवर्. तदनन्तरं सर्वाणि पुस्तकानि तु मम पार्श्वे अधुना नास्ति, गृहे एव सन्ति. किन्तु विभक्तिवल्लरी अपि च भाषा, किं भाषादर्शिनी वा अभ्यासदर्शिनी, तत्तु समीचीनम्. अन्य एकम् अस्ति गीताप्रवेश प्रथमभाग, तदपि समीचीनं. किञ्चित् काम्प्लेक्स् अस्ति अधुना, किन्तु मन्दं मन्दं तु भवति सर्वं किम् आनन्देन पठिष्यति इति तु अहं जानामि. गीताप्रवेश प्रथमभाग, गीतासोपानं प्रथमभाग, अन्य एकमस्ति भाषापाक, बहु समीचीनं पुस्तकमस्ति भाषापाक. प्रथमभाग एव उत्तमम् अधुना तु. अस्तु अस्तु, विरमामः. पापाजी शान्ति पाठ.
भगिनि एकः प्रश्नः अस्ति, रु इति वदामि वा लु वदामि वा?
संस्कृतभाषायाम् अधुना अहं तु इति न पठितवती, सूत्रं तु न जानामि एव, किन्तु वर्गस्य मध्ये एकं एकवारं लक्ष्मी भगिन्या इति उक्तवान्, लु एव वदति. लु तु न वदति, लु एव आयाति. कथम् आयाति? एकं सूत्रम् अस्ति, किन्तु तत् सूत्रं किं तु अहं न जानामि.
बहु लैक् इन् लाट् आफ़् प्लेसेस् वेन् दे से इन् माहेश्वरसूत्राणि दे से
माहेश्वरसूत्राणि तु भिन्न, तत्र तु लृ एव
लृ. ओके,
किन्तु पदस्य मध्ये आयाति चेत् लु एव भवती उक्तवती. अस्तु, हा पापाजी शान्ति पाठ वदतु. पूर्णमदः
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमगच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते हरि ॐ श्रीगुरुभ्यो नमः हरि ॐ
धन्यवादः भगिनि नमस्कारः
धन्यवादः भगिनी धन्यवादः पापाजी